इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः सुरेश चन्द्र शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य केरल प्रदेशे पथानामथिट्टा जनपदे लोकसभा निर्वाचन प्रचार कार्यक्रमे भागं ग्रहीष्यति। प्रधानमन्त्री श्रीनरेन्द्र मोदी तत्र एनडीए ग्रन्थीयुत दलस्य प्रत्याशिनः अनिल एंटनी इत्येतस्य पक्षे निर्वाचन सभां सम्बोधयिष्यति। प्रधानमन्त्री श्रीनरेन्द्र मोदी पथानामथिट्टा जनपदस्य जनपद प्रांगणे सार्वजनिक उपवेशन कार्यक्रमे अपि भागं भजिष्यति। प्रधानमन्त्रिणः इत्येतां यात्रां सन्निध्याय जनपदे सुरक्षा व्यवस्था सुदृढीकृता। प्रधानमन्त्री श्रीनरेन्द्र मोदी गतदिने नवदेहल्याः जवाहरलाल नेहरू प्रांगणे प्रधानमन्त्री स्वनिधि लाभार्थिनः सम्बोधितवान्। कार्यक्रमं सम्बोधयन् प्रधानमन्त्री समुदीरितवान् यत् स्वनिधि योजना मार्गवीथि विकृतेभ्यः जीवनरेखा रूपेण सिद्धा संजाता। गतदिने प्रधानमन्त्री स्वनिधि योजनायाः लाभार्थिभ्यः ऋणं श्रीमोदी वितरितवान्। तत्र श्रीमोदी प्रोक्तवान् यत् कोविडकाले मार्गवीथि विक्रेतृणां साहसः अद्भुतः आसीत्। समाजे योगदानाय तेभ्यः वर्धापनमपि प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रकाशितवान्। वातीन्धन वितरण समवायैः पेट्रोल डीजल इति वातीन्धन मूल्येषु न्यूनतायाः घोषणा कृता। अशेषे हि देशे मूल्येषु द्विरूप्यात्मिकी न्यूनता संजाता। नव मूल्यात्मिकी वितरण क्रिया अद्य प्रभृति प्रातः षड्वादनतः प्रवर्तयिष्यते। प्राकृतिक वातीन्धन मन्त्रालयेन संचारपटले प्रकाशितायां सूचनायां समुद्घोषिता यत् एतेन उपभोक्तृ व्ययः वर्धयिष्यते। रूस देशे राष्ट्रपति निर्वाचनाय मतदान प्रक्रिया अद्य प्रारम्भा भविष्यति। निर्वाचनं निध्याय तत्र सर्वाः सज्जाः सम्पूरिताः। मतदानम् अद्य प्रभृति समारभ्य मासस्यास्य सप्तदशदिनांकं यावत् अर्थात् दिनत्रयं यावत् प्रचलिष्यति। रूसदेशे राष्ट्रपति निर्वाचनं न केवलं रूसदेशाय अपितु सम्पूर्णविश्वाय अपि महत्वपूर्णं वर्तते। एतत् प्रथमं वारं यत् रूसदेशे निर्वाचन प्रक्रियायां अन्तर्जालीय विकल्पस्य उपयोगो भविष्यति। केन्द्रीयः गृहमन्त्री अमितशाहः नागरिकता संशोधन अधिनियम विषये प्रोक्तवान् यत् सीएए इति नागरिकता संशोधन अधिनियमः नागरिकतायाः अधिकारं यच्छति। अनेन कस्यापि नागरिकता नाधिग्रहीष्यते। एकस्मिन् संचारपटले प्रदत्ते साक्षात्कारे श्रीशाहः प्रोक्तवान् यत् नागरिकता संशोधन अधिनियमः अफगानिस्तान बांग्लादेश पाकिस्तान देशेभ्यः समागतेभ्यः हिन्दू बौद्ध जैन सिख ईसाई पारसी शरणार्थिभ्यः अधिकारं नागरिकतां च प्रदास्यति। सः प्रोक्तवान् यत् नागरिकता संशोधन अधिनियमान्तर्गतं सर्वेभ्यः समानाधिकाराः प्रदास्यन्ते यतोहि ते अद्य भारतीय नागरिकताः अधिग्रहीष्यन्ति। अन्ते च क्रीडावार्तासु। ऑल इंग्लैंड ओपन बैडमिंटन प्रतिस्पर्धायां पुरुषैकलवर्गे विश्वस्य तृतीय वरीयता प्राप्तं एंडर्स एंटोसेन इत्यमुं पराभूय भारतीयः क्रीडकः लक्ष्यसेनः प्रागुपान्त्यचक्रं प्राविशत्। लक्ष्यसेनः एंटोसेन इत्यमुं चतुश्चत्वारिंशत् द्वाविंशत् एकादश एकविंशतिः चतुर्दश इत्यन्तरालैः पराजितवान्। अपरत्र महिला एकलवर्गे पीवी सिन्धुः द्वितीय चरणे पराजिता, येन तस्याः प्रतिस्पर्धा यात्रा समाप्ता जाता। विश्वस्य शीर्षांकधारिता कोरिया देशीया एनसे यंगः इत्येषा पीवी सिन्धुम् एकोनविंशतिः एकादश एकादश एकविंशतिः इत्यन्तरालैः पराजितवती। इति वार्ताः।